सर्वेभ्यः नमः, स्वागतम्। गतवर्गे वयं क्रियापदस्य विभज्यप्रयोगस्य विषये वयं पठितवन्तः। अद्य तस्मिन् विषये वयं पुनः किञ्चित् पठित्वा अभ्यासं कुर्मः। अस्तु, तत्र क्रियापदस्य विभज्यप्रयोगः किमस्ति चेत्, तत्र बालकः पठति इति अस्ति चेत् तत् बालकः पठनं करोति इति कुर्मः। एतत् रूपं वयं भावः इति, भाविप्रयोगः इति वदामः, कर्तरिप्रयोगः न, कर्मणि प्रयोगः न। अस्तु, तत्र एषः प्रयोगः अस्ति चेत् तत्र अन इति भवति, तत्र पठनं, गमनं, क्रीडनम् इति अस्ति, उद्घाटनम् इति भवति। तत्र
भगिनी एकनिमिषं, तत् द्वितीयविभक्तिरूपम् अस्ति वा, स्थापनं वा धनं?
न भगिनि, तत्र आम् आम् क्षम्यताम्, आम् द्वितीयविभक्तिरूपम् अस्ति। तत्र कर्मपदम् इव भवति, इव भवति। अस्तु, तत्र सः पठति, तत्र बालकः पठति, अत्र कर्मपदं नास्ति। बालकः पठनं करोति इति भवति चेत् बालकः कर्तृपदं, पठति इति क्रियापदं, सारि आम् बालकः इति कर्तृपदं, करोति इति क्रियापदं, पठनम् इति कर्मपदम्। अस्तु अस्तु, अत्र पुनः पठित्वा वयं गच्छामः। अस्तु, अत्र प्रथमः अस्ति, कृष्णः अर्जुनम् उपदिशति। तत्र कृष्णः अर्जुनस्य उपदेशं करोति। अत्र किं भवति चेत्, प्रथमवाक्ये कर्मपदम् अस्ति चेत् वयं क्रियापदस्य विभजनं कुर्मः चेत् तत्र कर्मपदं षष्टिविभक्तिरूपं भवति। एवं कृष्णः अर्जुनम् उपदिशति, तत्र अर्जुनमिति कर्मपदम् आसीत्। इदानीं कृष्णः अर्जुनस्य उपदेशं करोति, तत्र षष्टिविभक्तिः अस्ति। अस्तु, एवमेव प्रबन्धतज्ञाः गीताव्याख्यानं शृण्वन्ति। अत्र गीताव्याख्यानम् इति कर्मपदमस्ति, तस्य षष्टिविभक्तिः भवति। तत्र प्रबन्धतज्ञाः गीताव्याख्यानस्य श्रवणं कुर्वन्ति, तत्र शृण्वन्ति इति श्रवणं कुर्वन्ति, किं कुर्वन्ति, श्रवणं कुर्वन्ति इति भवति। एवमेव अत्र दत्तानि सन्ति, स्थापयति, स्थापनं करोति इति भवति विभजनम्। तत्र विभज्यप्रयोगः किमस्ति चेत्, क्रियापदम् अस्ति चेत् तत् विभजनं कृत्वा किमपि करोति इति वदामः। अस्तु, तत्र वयं पृच्छामः किल, सः किं करोति, सः पठति इति वक्तुं शक्नुमः, सः पठनं करोति इति अपि वक्तुं शक्नुमः। तत्र किं करोति इत्यत्र कर्मपदस्थाने किम् इति वदामः, तत्र पठनं करोति इति वक्तुं शक्नुमः। अस्तु, अत्र स्थापयति, स्थापनं करोति, तत्र रथं स्थापयति इति वदामः चेत् रथमिति कर्मपदं भवति किल। तत्र रथं स्थापयति इति रथस्य स्थापनं भवति. अनन्तरं वादयति इति विभज्यप्रयोगे वादनं करोति इति भवति. किं करोति? वादनं करोति अथवा वादयति. इदानीं भेरीं वादयति इति दत्तमस्ति. किं करोति सः? किं करोति सः? भेर्याः वादनं करोति. अस्तु. अनन्तरं हृदयं विदारयति. अस्तु, अत्र विदारयति इति अस्ति. विभजनं कुर्मः चेत् विदारणं करोति. हृदयस्य हृदयं विदारयति. इदानीं कर्मपदस्य षष्टि भवति किल, हृदयस्य विदारणं करोति इति भवति. अत्र अवगमनं भवति वा? प्रश्नाः सन्ति वा?
So we need to know the meaning of the word, right, Bhagini?
तत्र किमस्ति चेत् अत्र वयं विभजनं कुर्मः चेत् तत्र एकं रूपं भवति. तत्र गच्छति इत्यस्य एकं रूपं गमनम् इति. तत् अग्रे पठामः, परन्तु इदानीं वयं रूपं कथं ज्ञातव्यम् इति न पठामः. तत् अग्रिमसप्ताहे पठामः. इदानीं रूपं किं भवति इति पश्यामः. अस्तु, अवगच्छति वा महोदय?
आं भगिनि.
अनन्तरं प्रेरयन्ति. इदानीम् अत्र बहुवचनमस्ति. बहुवचनमस्ति चेत् किमपि कुर्वन्ति, तदेव इन्द्रियान् प्रेरयन्ति इति प्रेरणं कुर्वन्ति. अस्तु, अत्र कुर्वन्ति किमर्थमस्ति? तत्र बहुवचनमस्ति प्रेरयन्ति, तदर्थं प्रेरणं कुर्वन्ति इति अस्ति. अस्तु, इदानीम् अत्र कर्मपदमस्ति इन्द्रियाणि. इन्द्रियाणि प्रेरयन्ति. इन्द्रियाणि किं कुर्वन्ति? इन्द्रियाणि प्रेरणं कुर्वन्ति. क्षम्यताम्, अत्र इन्द्रियाणि प्रेरयन्ति. इन्द्रियाणां प्रेरणं कुर्वन्ति. क्षम्यताम्. अनन्तरं प्रविशति. प्रविशति इत्यस्य विभजनं कुर्मः चेत् प्रवेशं करोति. तत्र तस्य रूपं प्रवेशं करोति. इदानीं कर्मपदं कुरुक्षेत्रं प्रविशति. तत्र कुरुक्षेत्रस्य, अत्र षष्टि क्रिया कर्मपदस्य षष्टि भवति. कुरुक्षेत्रस्य प्रवेशं करोति. अनन्तरम् उद्घोषयति. जयम् उद्घोषयति. इदानीम् उद्घोषयति इत्यस्य विभज्यप्रयोगः उद्घोषणं करोति. जयम् उद्घोषयति, जयस्य उद्घोषणं करोति. तत्र सः जयम् उद्घोषयति इति भवति चेत् सः जयस्य उद्घोषणं करोति. अस्तु
भगिनि,
वदतु भगिनि.
मीनिङ्ग्, इस् देयर् अ डिफरेन्स् इन् द मीनिङ्ग् भगिनि बिट्वीन् दीस् टू फार्म्स्, आर् इस् इट् जस्ट् टु आन्सर् अ क्वश्चन् भगिनि?
तत्र कश्चन समये तत्र अर्थे अर्थः भिन्नः भवितुम् अर्हति. तत्र कथा अस्ति चेत् अथवा कुत्र अस्ति it depends on where it is, Bhagini. Like, atra, ekimsha, atra, gatavarke vayam patitavanta, atra, sanjayaha dhritarashtram bodhayati. तत्र सञ्जयः धृतराष्ट्रस्य बोधनं करोति इति भवति. तत्र अत्र क्लेशः भवति किमर्थं चेत् अत्र किं वदामः, सञ्जयः अस्ति, सः धृतराष्ट्रं किमपि बोधयति, परन्तु द्वितीयस्य वाक्ये अर्थः समानः अपि भवितुमर्हति, भिन्नः अपि भवितुमर्हति. एकस्मिन् समये सः धृतराष्ट्रः अस्ति, तस्मिन् तं किमपि बोधयति, अथवा सञ्जयः कस्मिन् अपि धृतराष्ट्रं बोधयति. सो देर्स् टु मीनिङ्ग्स् एण्ड् दिस् डिपेण्ड्स् आन् द सिनारियो एण्ड् द काण्टेक्स्ट् आफ़् द स्टोरि ओर् द थिङ्ग् बिकास् For the second sentence, Sanjayaha Dhritarashtrasya Bodhanam Karoti. You can, the one meaning can be just like the first. The second will be that he is teaching someone else about Dhritarashtraha. Just like Saha Bhagavad Gita Yaha Bodhanam Karoti. He is teaching Bhagavad Gita. Astu. So it depends on the context. Here we do not have that much context. So klesha bhavitum arhati. Astu.
Okay, Bhagini.
Then I think second one will answer kasya, right? So then we get a better idea of what the sentence is.
Kasya bodhanam karoti.
So he is talking about Dhritarashtra. So Dhritarashtra bodhanam. Yeah.
अस्तु इदानीम् अत्र अस्तु इदानीम् अत्र वयं गतवर्गे कृतवन्तः, परन्तु पुनः एकवारं कुर्मः. कोष्टकात् उचितं पदं चित्वा वाक्यं पूरयत. अस्तु, प्रथमं मोहन् महोदय भवान् करोतु.
द्वारम् उद्घाटयति डाश् करोति. द्वारस्य उद्घाटनं द्वारं सो ओके द्वारम् द्वारम् उद्घाटनं करोति.
द्वारस्य
Okay, so the same thing we have to mention it. Okay. Satkaroti, Atitam, Satkaroti, Dash Karoti. So same thing, Bhagini, Atite Satkaroti. Last class I missed, Bhagini.
Atto, Tadeva aham inanim api uktavati, tatra, kim bhavati chet, वाक्यम् अस्ति. अस्तु, त्रीणि पदानि सन्ति. एकं कर्तृपदं, द्वितीयं कर्मपदं, तृतीयं क्रियापदम्. अस्तु, अत्रापि तदेव अस्ति. अस्तु, प्रथमः कर्तृपदं, द्वितीयः कर्मपदं, तृतीयं क्रियापदम्. इदानीं क्रियापदस्य विभजनं नाम वि आर् ब्रेकिङ्ग् इट् डौन् इन् टु टु पार्ट्स्. सो
क्रियापदं वि आर् ब्रेकिङ्ग् इट् डौन् इन् टु टु पार्ट्स्.
या, बट् मीनिङ्ग् इस् द सेम्. सो वेन् वि ब्रेक् इट् डौन् इन् टु टु पार्ट्स् द कर्मपदं चेञ्जस्. अस्तु, सो कर्तृपदं स्टेस् द सेम्. The karma padam becomes shashti vibhaktihi. And then we have the vibhajya prayogah. Astu.
Okay. So I'll give it the third one. Nibadnati. Ashwan nibadnati dash karoti. Okay. कर्तृपदं रिमेन्स्
अश्वान् न अत्र अश्वान् इति कर्मपदं दत्तमस्ति टेक् सः अश्वान् निबध्नाति टेक् सेण्टेन्स् लैक् दट् महोदय
ओके सः अश्वान् निबध्नाति सो कर्तृपदं इस् अश्वान् रैट् एण्ड् क्रियापदम् इस् करोति निबन्धति इस् कर्मपदं
they have given at the top of the table no you use one of the words
nibandhanam you have all the ditiya forms
okay. nibandhanam
ashwan nibandhanam ashwanam saha ashwanam nibandhanam karoti
yeah
okay okay dash dvajam pratisthapayati dash karo dvajasya okay ध्वजं प्रतिष्ठापयति सः ध्वजस्य प्रतिष्ठापनं करोति रैट् भगिनि सः ध्वजस्य प्रतिष्ठापनं करोति ओके कीर्तिमा अर्जयामि डाश् करोति अर्जयामि कीर्तिमन् अर्जनं
कीर्तेः अर्जनं करोमि
कीर्तेः अर्जनं करोमि
दिस् इस् वेरि ईज़ी बिकास् दे हेव् गिवन् यू आल् द इन्फर्मेशन् आल् यू नीड् टु डू इस् जस्ट् टेक् द इन्फर्मेशन् फार् एक्साम्पल् अर्जयामि अत्र कीर्तिम् अर्जयामि इति अस्ति सो कर्मपदमस्ति तस्य षष्ठी विभक्तिः भवति तत्र दत्तमस्ति कीर्तेः इति सो कीर्तेः इदानीं विभज्यप्रयोगः तत्र कोष्टके कुत्र अस्ति अर्जनम् इति अत्र अस्ति कीर्तेः अर्जनं करोमि तावदेव
शत्रुम् आह्वयसि करोषि शत्रोः आह्वानं करोषि शत्रोः आह्वानं करोषि भगिनि वद शत्रोः आह्वानं करोषि
अस्तु अत्र प्रश्नाः सन्ति वा अस्तु इदानीं द्वितीयं कुर्मः अस्तु तत्र अत्र किमस्ति तत्र किमपि पदं तत्र दत्तमस्ति तत्र षष्ठी भक्तिः एव कर्तव्यम् अत्र घटः इति अस्ति चेत् घटस्य कुर्मः तावदेव अस्तु तत्र अत्र वयं द्रष्टुं शक्नुमः क्रियापदं किं भवति इति अस्तु एषः घटः एषः रिक्तस्थानं पूरणं करोति एषः घटस्य पूरणं करोति अस्तु राधा भगिनी भवती करोतु
गोशः हृदयं डाश् विधारणं करोति. गोशः हृदयस्य विधारणं करोति. Shall I do the next one also, Bhagini?
आं करोतु भगिनि.
कृष्णः रथः स्थापनं करोति. सो षष्ठी रूपं कृष्णः रथस्य स्थापनं करोति. वयम् इन्द्राणि प्रेरणं कुर्मः. वयम् इन्द्राणि कुर्मः. सो इट् शुड् बि बहुवचनरूपम्. इन्द्रियाणां वयम् इन्द्रियाणां प्रेरणं कुर्मः. देन् अर्जुनः गीतामृतं पानं करोति. अर्जुनः गीतामृतस्य पानं करोति. भीमः दुःशासनः मारणं करोति. भीमः दुःशासनस्य मारणं करोति. सहदेवः शकुनिः हननं करोति. सहदेवः शकुनेः हननं करोति. एषः इन्द्रियाणि संयमनं करोति. एषः इन्द्रियाणे संयनं करोति इस् और् इन्द्रियाणां भगिनि तत्र किञ्चित्
इन्द्रियाणां
इन्द्रियाणां
we have used it previously also that one. In the first koshtaka.
No, in fourth one, vayam indriyani is a, because it is a bahuvachana form indriyanam. But this is eshaha, so and it's karoti, so shouldn't it be indri indriya?
Ek nimsha. Atra vayam indriyani preranam kurmaha. इति दत्तमस्ति. इदानीम् इन्द्रियाणि इति षष्टिविभक्ति बहुवचने किं भवति?
इन्द्रियाणां.
वयम् इन्द्रियाणां प्रेरणं कुर्मः. वयम् इति अपि बहुवचनं, कुर्मः अपि बहुवचनं. तस्य किमपि सम्बन्धः नास्ति इन्द्रियाणि इत्यस्य. अपि प्रेरणम् इत्यस्य अपि कुर्मः इत्यस्य सम्बन्धं नास्ति.
So how do you decide whether to use the bahuvachanam form or the ekavachanam form or the dvivachanam form? What should you look at, Bhagini?
For which? For the karma padam, kartra padam or kriya padam, Bhagini? Because it's depending on what you want to say, not what the sentence wants to say.
So can I say vayam indriyane preranam kurmaha? Is that also correct?
Indriyani indriyam, so indriyasya preranam kurmaha.
Oh, indriyasya, okay. Indriyam.
But there are multiple, so they are saying indriyani. If you want to only say one, then you can say one.
Okay.
अस्तु. अनन्तरं प्रिया भगिनि,
सो हौ डु यु से द एय्थ् वन् भगिनि? केन् यु प्लीस् डु देट्?
फर् द एय्थ् वन्, एषः इन्द्रियाणि रिक्तस्थानं संयमनं करोति. अस्तु. एषः इन्द्रियाणां संयमनं करोति.
Or you can even say, Eshaha Indriyasya Sayamanam Karoti, right?
Ah,
both,
yes.
Are correct.
Both are correct.
Dhanyavadam.
The karma padam does not follow the bahuvachana of the kriya padam and kartru padam. It just depends on what you want to say.
Um.
कृष्णः गोपिकानां वस्त्राणि अपहरणं करोति. कृष्णः गोपिकानां वस्त्राणाम् अपहरणं करोति. योगी सर्वत्र ईश्वरः ईक्षणं करोति. योगी सर्वत्र ईश्वरस्य ईक्षणं करोति. पुण्यकृत पापं तरणं करोति. पुण्यकृतं पापस्य तरणं करोति. अहं श्लोकः अनुवादनवादं करोति. अहं श्लोकानाम् अनुवादनं करोति. और् श्लोकस्य अनुवादनं करोति. बोत् करोमि.
अस्तु. अनन्तरं नरसिंहमूर्ति महोदय भवान् पठतु.
भगिनि, क्रियापदानि विभज्य लिखत्. क्रियापदानि क्रियापदानां विभजनम् अलङ्करोति. अलङ्कारं करोति. सेकेण्ड् वन् इस् परिचिन्तयति. परिचिन्तनं करोति. बोधयामि. बोधनं करोति. शल् ऐ डु द नेक्स्ट् वन् भगिनि?
आम्.
पिबति. पानं करोति.
अत्र स्थगयतु. इदानीं राधा भगिनी भवती.
प्रक्षालयसि. प्रक्षालयनं करोति.
प्रक्षालनं करोति.
प्रक्षालनं करोति. ओ नो,
करोसि. करोसि
करोसि. निर्गच्छति. निर्गमनं करोति. इस् दट् द रैट् आन्सर् भगिनि?
निर्गमनं करोति. समीचीनम्.
प्रविशत्. प्रविशत् कुरुत. इस् दट् हौ इट् इस्?
द्विवचनं. करेक्ट्.
आम्, समीचीनम्.
Sorry, I didn't understand that, Bhagini. What does, how is that?
Pravishat. Takaram is there, no? So that is Vivachanam form, right?
Oh, okay, okay, okay. Okay, nice.
Pravesham
Kuruta.
Patati, patati, okay. Patataha, patanti.
Okay.
Patataha, patataha, that one. Like that, Pravishataha, so... Pravishat, and Kuru will be Kuruta.
Okay.
Pravesham Kuruta, okay.
Can you repeat it, Bhagini, once again, how Pravishat is?
You asking me or Kadambari,
yes,
Bhagini?
So, is it Ti Taha Tha? So, is it Bahuvachanam? Is that what?
Dvivachanam, Mahode.
Dvivachanam.
Madhyama Purushaha Dvivachanam, right, Bhagini?
Oh. Asto. Idani Priya Bhagini Bhavati Karoto.
परिभ्रमति. परिभ्रमं करोति. anusarati anusaranam karoti. Is that right, Bhagini? Smarati smaranam karoti.
Paribramati is paribramanam, right?
Paribramanam. What did I say, Bhagini? Sorry.
Paribramanam.
I think I said paribramam. Paribramanam. Paribramanam karoti, anusaranam karoti, smaranam karoti. Chinati. Chedanam karoti. Abhinandati. Abhinandanam karoti. Avrunoti. 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 I don't know how to change this form, Bhagini.
Avaranam karoti iti bhavati, Bhagini.
Avaranam.
So for now, we just have to use our sense and do this. Next week I'll go through like in detail. This is called Ludanta Rupam, and we'll go through this next class more in detail.
Okay, Bhagini. Avaranam karoti.
What rupam is this, Bhagini? Can you repeat this?
Ludanta.
Fourteenth one, how should we do it, Bhagini? Stuvanti, stuvanam kurvanti, is it? Sandhanam karoti. Gayati ganam karoti.
Shoshayati soshayanam, Bhagini?
Shoshanam.
Shoshanam.
Shoshanam karoti.
Okay. Next is sangrahnati. Sangrahnati. Sangrahanam.
Karoti.
Karoti.
Sangrahanam karoti.
Ganam karoshi. Ganam karoshi.
Ganam karoshi.
Kastu.
Ganam karoshi. No, not karoshi.
Ganam karoshi.
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 She.
She, Bhagini, she.
Why is it she? Because it is Gaya C.
Karoshi iti bhavati.
Oh. The form is itself like that?
Karoshi iti rupam nasti.
Oh, okay. Then you want Karoshi. I'm getting mixed up. Can you do the next one, Bhagini?
Yato daharanam vakyani rachayata. अस्तु प्रथमं नमनं करोषि नमसि अस्तु इदानीं दहनं करोति किं भवति
सः दहति
करेक्ट् भगिनि Can I do the next one, Bhagini? Sangrahanam Kurmaha?
Karotu Bhagini.
Kurmaha is Bahuvachanam. So, Avam Sangrahmimaha.
Sangrahmiha.
Sangrahmimaha. Avam Sangrahmimaha. Is that correct, Bhagini?
Sangurmiha. No hakar, I think. Sangurmiha.
What is it, Patni? What is the answer? How is it? Kadambri, Patni?
Well, so, Patni?
What is the answer, Bhagini? What is the right form?
Ek nimsha.
Sangrahanam becomes sangrimiha. No, hakara will be missing there. I think. Sangrimiha.
Sangrinanti iti chintayami.
For avam it is sangrinanti
kurmaha kurmaha
kurmaha
kurvayam kurmaha no
sorry
maha should be she end with maha no
vayam oh right you're right priya vayam vayam
sangramiha
sangraha
Kurmaha should be in. Only end should be with makara only. Maha. Vaha, vaha is Ditya. Divachanam. Shashti Bhakti.
It will be Sangrinimaha.
Can you write it and show Bhagini?
Tata. एवं भवति सङ्गृह्णीमः
धन्यवादः ईश्वर
Should we do the next one, Bhagini? Adhigamanam adhigamanam karoti yesah adhigacchati. Correct, Bhagini? Shall we do the next one? Jeevanam kuruta jeevanam idari yesha jeevata kuruta jeevata jeevata yeah. Chintanam kurutaha yesha chinta yataha takara. Okay, here I'm good. Takara. Okay, chinta yataha.
Which is correct, Bhani? Chinta yataha or chinta taha?
Chinta yati, chinta yataha.
Because it is dvivachanam.
Dvivachanam, that.
Chinta yataha.
So it is tau chintayataha, right?
So it is Dvivachanam Kurvaha Vakti Shakti and Anvishayavaha.
Avam Anvishayavaha.
Anvishayavaha Avam.
Is that correct, Bhagini? Anvishayavaha?
Samichinam.
Is it Anvishayavaha or Anvishayavaha? That was a confusion.
Anvishayavaha.
Bhagini, can you clarify that, please? Anveshanam is Anvishayavaha or Anveshayavaha?
Anveshayavaha.
Pariharanam Kurvanti. Kurvanti. Bahuvachanam. Pariharanti.
Pariharanti. Yeah, Pariharanti. Chetanam Kuru.
Who should try Bhagini now?
Mohan Mohdiya Bhavan Karoto.
Which one, Bhagini?
8-1.
Chedanam karoti.
Chinnati.
Chinnati. Chinnati. Chinnati. It is there. Okay. Brahmanam karomi. Brahmanam karomi. Is it Brahmanam Brahmati?
Yeah.
Brahmati. Brahmanam Karoti is Brahmati, right?
It is Karomi, so you should get that form.
Okay. Brahmanam Karomi. Brahmati is not right? Brahmate? Brahmati is Is it not Brahmati, Bhagini?
It can't be Brahmati Mahodaya because it is Karomi, it is not Karoti.
Okay, then Karomi. Then what is it, Bhagavan? Is it Brahmati or?
Bhagini, what's the answer for the ninth one?
Brahmami.
Brahmami? Okay. Brahmanam karomi. Oh, Brahmami. Okay, because it is... okay, it is Uttama Purusha.
Bhavanam karomi.
Bhavan. Bhavan arjayati.
Arjasi is what I wrote.
Arjayati. Yeah, Arjayati.
Yeah, this is, yeah, Arjayati.
Bhagini, what's the answer, Bhagini, for the tenth one?
Arjati.
वचनं करोमि श्लोकः अहं श्लोकस्य वचनं करोमि किं वी डू द नेक्स्ट् वन् भगिनि
आं भगिनि
वचनं करोमि श्लोकः अहं श्लोकस्य वचनं करोमि स्मरणं करोति अहं कः मम स्मरणं करोति We should ask it in the question form, is it? What is this exercise, Bhagini? I didn't understand.
Tatra vachanam karomi, aham vachanam karomi, aham shlokasya vachanam karomi. So you are just doing shashti bhakti and adding a kartrupadam.
No, the next one, smaranam karoti. Because it's coming in a question form. Kaha mama smaranam karoti. So.
Aham is using mama. Shasti. Okay, they are changing in the parenthesis. Aham. Mama. Itihasam. Itihasaha. Itihasasya. Lekaram kurmaha. Abhagini.
So it will be Vayam Itihasya Lekanam Kurmaha, right?
Bhuvachanam Kurvanti Bahuvachanam Ye Devataha
Te
Devata, what is the Shashti Vibhakti Devata?
Devatanam.
Mm-hmm.
Te Devatanam. Pujanam Kurvan.
Is it Devatanam, Bhagini?
Kurvan.
Bhagini,
can you tell what the answer for it is?
Devatanam.
Te Devatanam. Pujanam
Kurvanti,
is
it? Yeah. Vastram Dharanam Karoshi. Vastram Karoshi. Is it Vastrani? Vagini? Vastrani Dharanam Karoshi?
No, it's Vastrasya Dharanam Karoshi, I think.
Karoshi, Vastrasya. Vastrasya, okay.
Vam Vastrasya Dharanam Karoshi. Arjanaha Karoti Jnana.
What Jnanam. Jnanam. Jnanasya arjanam karoti.
Saha jnanasya arjanam karoti. Ahvanam kurvati. Bhagini, if you ask us in terms, it will be easier, Bhagini. We are just doing it randomly.
Astu. We'll start from the first one. Lekanam kurumaha. Astu. Mohan Mahodhya, bhavan karotu.
Lekanam kurumaha. Itihasasya lekanam kurumaha.
Samichinam. Anantaram Narasimurthy Mahodhya. Pujanam kuruvanti.
Devatanam pujanam kurvanti. Vayam.
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 Na vayam na te.
Te na.
Astu. Priya Bhagini, dharanam karoshi.
Tvam vastrasya dharanam karoshi.
Samichinam. Radha Bhagini, arjanam karoti.
Jnanam. Saha jnanasya arjanam karoti.
Samichinam. Ahvanam kurvanti. Mohan Mahodhya.
Sarathehe ahvanam kurvanti.
पुनः वदतु महोदय. समीचीनम्. अस्तु. अनन्तरं नरसिंहमूर्ति महोदय.
स्थापनं करोति. अहं रथस्य स्थापनं करोति. सः रथस्य स्थापनं सः रथस्य स्थापनं करोति. करेक्ट् न?
लास्ट् वन् भगिनि.
आम्. उद्घाटनं करोषि. किं भवति प्रिया भगिनि?
भगिनि, देर् इस् हृदयानि, द सेवेन्थ् वन्.
उद्धारणं.
क्षम्यतां, विदारणं करोति.
हृदयानि, हृदयानां विदारणं करोति.
समीचीनम्. अनन्तरम् उद्घाटनं करोषि.
कार्यक्रमाणाम् उद्घाटनं करोषि.
एकनिमिषः. क्षम्यताम्. अस्तु, कुर्मः. इदानीं वयं वाक्यानि पठित्वा कर्तृपदं, कर्मपदं, क्रियापदं किं भवति इति वयं दृष्टवन्तः. इदानीं वयं वयमेव वाक्यानि कुर्मः. अस्तु, तत्र कथं कुर्मः चेत् अद्य भवन्तः किं कुर्वन्ति इति चिन्तयित्वा वक्तुं कर्तुं शक्नुवन्ति. अस्तु, अहम् अद्य पठितवती इति, अहम् अद्य पठामि इति अस्ति चेत् अहम् अद्य पठनं करोमि इति वदन्तु. अस्तु, अस्तु, प्रथमतः कः गच्छति?
अहं गच्छामि भगिनि.
आं वदतु भगिनि.
I didn't get what I have to say.
Okay, so you just make sentences and
should I give both the forms or
so just make sentences and one idea is to use what you did today. I'm just saying that as an example. You can just make up sentences. Ramah vidyalayam gachyati. Ramah vidyalayasya gamanam karoti, like that.
वार्तां करोति. सः हसति. नो, हौ डु यु गेट् इट्? सः जीवति, जीवनं करोति, इस् दट् रैट्?
आम्,
सः जीवति, सः जीवति, सः वेर् ऐम् ऐ नाट् गेटिङ्ग् षष्ठी विभक्ति महोदय. सः नो भगिनी, द षष्ठी विभक्ति इस् मिस्सिङ्ग् महोदय.
पुनः वदतु भगिनि.
सः जीवति, सः जीवनं करोति, इस् इट्? इस् देट् हौ इट् इस्?
आं, सः जीवनं करोति. अस्तु, नरसिंहमूर्ति महोदय, भवान् वदतु.
अहं श्लोकं वचनं वचनं करोमि. सो यु वाण्ट् मी टु चेञ्ज् दट् टु?
भवान् एव उक्तं वचनं करोमि.
वचनं करोमि,
तदेव विभजनम् अत्र अस्ति. Try to use another verb, try to use a verb other than karoti.
Karoti, okay. Shlokam vachanam. Vachanam kurmaha, like. Mama, sorry, maha. Apart from that karoti or kurma, we can use something else, no?
Mahoday, you can use anything. I'm just saying, just make a random sentence using some other verb other than karoti. Then we will, all of us will work together and then we can make it into vibhajya prayogaha.
Aham shlokam patami.
Patami, okay. अहं श्लोकं पठामि. इदानीम् अहम् इति कर्तृपदमेव भवति.
श्लोकम्
इति षष्ठी विभक्तिः भवति.
अहं श्लोकस्य पठनं
करोमि. समीचीनं, तावदेव. अस्तु प्रिया भगिनी, भवती करोतु.
सा गीतं शृणोति. सा गीतस्य श्रवणं करोति.
आम्, समीचीनम्. अस्तु मोहन् महोदय.
अहं कथं लिखामि? कथस्य लेखनं करोमि. Is it right, Bhagini?
पुनः वदतु महोदय.
अहं कथं लिखामि? कथस्य लेखनं करोमि.
Yeah, correct. भगिनी, केन ड्रैवर्?
आं, वदतु.
सरस्वती वीणा वादयति. सरस्वती वीणया वादनं करोति. वीणया वादनं करोति. Is it right?
Is Veenaya Sashti Bhagini?
No.
What is the Sashti for Veena?
Veenayaha.
Veenayaha, okay.
Veena is a Strilinga Padam. So, Veenayaha, Ramayaha.
Veenayaha Vadanam.
How do you split kadami, Bhagini? Aham.
Kadanam karomi.
Kadanam. Okay. Kadanam. अश्वः धावति. अश्वः धावनं करोति भगिनि.
किं भगिनि?
षष्टि इस् नाट् देर्.
आम्.
सेवकः वस्त्रं प्रक्षालयति. सेवकः वस्त्रं प्रक्षालयति. सेवकः वस्त्रस्य प्रक्षालनं करोति. रैट् भगिनि?
समीचीनम्. अस्तु अनन्तरं Does anyone else have sentence? अस्तु किञ्चित्
I want to try one more, Bhagini. Shall I try a plural one?
आम् आम्.
वयं मन्दिरं गच्छामः. वयं मन्दिरस्य गमनं कुर्मः. इस् दट् करेक्ट्? अस्तु भगिनि.
किञ्चित् वयं कुर्मः, आरम्भं कुर्मः. सप्तमी विभक्तिः. अस्तु, मोहन् महोदय, भवान् पठति वा?
यस् भगिनि. स्वधर्मे निधनं श्रेयः, उच्चैः पठत अवगच्छत च. महाराजः गजे उपविशति, खगाः आकाशे विहरन्ति. आञ्जनेयः ध्वजे विलसति, छात्राः विद्यालये पठन्ति. सप्तमी विभक्तिः. शिशुः रेखायाम् असति, चित्रं वेदिकायाम् अस्ति. वर्णाः पिञ्चिकायां सन्ति, जनाः वाटिकायां विहरन्ति.
समीचीनम्. अस्तु, अत्र सप्तमी विभक्तिः किमस्ति, तत्र किमपि स्थानम् इति भवति, तत्र अस्ति इति वक्तुम्. अस्तु, तत्र महाराजः गजे उपविशति, तत्र स्थानमस्ति, गजः गजस्य गजे उपविशति इति.
इन् आर् आन्, रैट्?
पुनः वदतु.
लैक् इन् आर् आन् टु टु से दट् वि यूस् द
लोकेशन्.
लोकेशन्.
खगाः आकाशे विहरन्ति, तत्र एकं स्थानमस्ति, आकाशे इति स्थानमस्ति किल. आञ्जनेयः ध्वजे विलसति, ध्वजः इति स्थानं. विद्यालये पठन्ति, विद्यालयः विद्यालयम् एकं स्थानम्. अस्तु, अनन्तरं प्रिया भगिनी भवती पठति वा?
बाणाः तूनीरे सन्ति, योधारः रणक्षेत्रे युद्धयन्ते, श्रान्तः कुठीरे निद्राति, बालः गृहे तिष्ठति. औषधं कूप्याम् अस्ति, नौका नद्याम् अस्ति, वस्तूनि प्रदर्शिन्यां सन्ति, जलं वाप्याम् अस्ति. You want me to keep going, Bhagini?
Atra sthagayatu. Astu. Atra ikaranta strilinga shabdaha santi. Tatra aushadam kupi iti bhavati, kupyam iti asti. Ah. नौका नदी नदी इति अस्ति नद्याम् अस्ति अस्तु अनन्तरम् अत्र नरसिंहमूर्तिमहोदय भवान् पठतु
किङ्गिकाण्यो 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 पादयोः किङ्कण्यौ किङ्कण्यौ पादयोः स्तः भटाः स्ततयोः सन्ति फलानि वृक्षयोः सन्ति कङ्कणानि हस्तयोः सन्ति पर्णानि लतयोः सन्ति यात्रिकाः नौकयोः सन्ति वस्त्राणि पेटिकायोः सन्ति पुस्तकानि निधानिकायोः सन्ति
इट् लुक्स् लैक् इट् इस् आन्सरिङ्ग् द क्वश्चन् कुत्र रैट्
आम् कुत्र
ओके सो कस्य इस् षष्टि कुत्र इस्
पुत्राय सीम्स् टु बि सप्तमी
सो सप्तमी बहुवचन
Can I read the next one, Bhagini?
Can you go up a little bit, Bhagini, at the second part? Yeah, so the final, the last one, Kinkinyoho, Padayoho, so those are all Dvivachanam, and above that, is that the Bahuvachanam? Banaha, Tunire, Santi, Aushadam, Kupyam, Kupi, Kupi, Kupyam, What is the Bahuvachanam of Kupi? Kupi, Kupyah, Kupi.
Kupyam, Santi.
कूप्यः ऐ थिङ्क् ईकारान्त स्त्रीलिङ्ग भगिनि इट्स् लैक् गौरी
नदी
ओके नदी नदी गौरी सो So, Kupi, so Kupyam is Bahuvachanam, right there? So then the second one is Bahuvachanam, the first one, the lower one is Dvivachanam.
अनन्तरं
एकः प्रश्नः भगिनि कुत्र अर्थं वेर् भगिनि कस्मिन् मीन्स् विच् भगिनि
पुनः वदतु
कस्मिन् भगिनि द वर्ड् कस्मिन् विच् भगिनि कस्मिन् आल्सो मीन्स् वेर् कुत्र आल्सो मीन्स् वेर्
कस्मिन् इस् लैक् इन् वट् अस्तु मोहन् महोदय भवान् पठतु
जलं द्रोणयोः अस्ति भिन्नाः नद्योः सन्ति Uh, 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 uh. Bhagini, Nadyoho is, right, Bhagini? Oh, it's Duryavachanam again, right? And what is the Ekavachanam of, okay, Nadinam?
Srikarant Srilinga Duryavachanam.
Nadhyav, Nadhyav, Nadhyav. Nadhyav, Nadhishu.
Nadhyav, Nadhyoho, Nadhishu.
Nadhyam Nadyoho Nadishu. So is it, so here Nadyoho is Dvivachanam, right? Saptami Vibhakti Dvivachanam.
Mm.
All these again are Dvivachanam. Dronyoho, Nadyoho, Darvyoho.
Ikaranta Strilinga Dvivachanam Mahadya.
Yeah. पुनः पूरण्योः अस्ति दशी दशी पुनः पूरण्योः अस्ति तैलं दर्व्योः अस्ति
भगिनी
आं वदतु भगिनि
चक्राणि स्यन्दन्योः सन्ति अश्रुणि नेत्रयोः सन्ति अलङ्कारः द्वारयोः अस्ति चित्राणि पुस्तकयोः सन्ति दिस् इस् आल्सो द्विवचनं आफ् This is Napunsakalingam, right? Dvivachanam, Svendanam, Netram, Dwaram, Pustakam. Janaha, Margeshu, Gacchanti. I think now this is Bahuvachanam. Janaha, Margeshu, Gacchanti. Khadgaha, Kosheshu, Santi. Vanaraha, Vrikshesu, Kreedanti. Vicharaha, Granteshu, Pavanti. This is Bahuvachanam for, again, Napumsakalinga, right? Margam, Kosham, Vriksham, Grantham. Yeah. Sarpaha, Shakasu, Santaranti. Martaha, पत्रिकासु सन्ति सिंहाः गुहासु वसन्ति छात्राः वाटिकासु विहरन्ति इस् दिस् बहुवचनं फार् स्त्रीलिङ्गं भगिनि शाखा पत्रिका गुहा वाटिका
आं भगिनि
Should I read the next one also, Bhagini?
Atra Stagaya Maha Bhagini.
We can finish off the last one also, Bhagini.
Masto. Ketat Krita Vayam Kurma.
If somebody else wants to read, they can read.
Masto.
Anybody wants to read?
I'll read. Araha Chakreshu Santi. Madhuryaha Madhuryam Faleshu Bhavati. Mrugaha Vaneshu Bhavanti. Faleshu. So Bahuvachanam Saptami. This is Napumsakalingam Bhagini, Madhuram, Margam.
Hmm.
Angulyakani. Angulya. Angulishu Santi. Apanaha. Vidhishu Santi. Hamsaha. Vidhishu Taranti.
Napishu.
What is happening? Vapishu. Ah. Hamsaha Vapishu Taranti.
Ah.
What vachanam is that, Bhagini? Anguli, Viti, Srilingam?
Bahuvachanam.
Bahuvachanam, what?
Apanam Sakalingam, Apanam.
No, you have to take the...
Anguli.
Anguli. You have to take the other one, vachanam, Bhagini.
Anguli. Anguli is... what is that, Bhagini? Is that Srilingam?
Looks like Srilingam, you can... Strilingam.
Strilingam.
Because Vapi is pond. So Hamsaha Vapi Shukha.
Hamsaha.
Yeah. Can do this homework for homework, Bhagini Abhyasa.
Ashtu. अत्र स्थगयामः अस्तु अहं ध्वनिमुद्रणं प्रेषयामि धन्यवादः नमस्कारः
धन्यवादः
पुनर्मिलामः